इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। सुवेन्दु अधिकारी अद्य पश्चिम बंगाल राज्यस्य प्रथमस्य भाजपेति दलस्य मुख्यमन्त्रिरूपेण शपथग्रहणं करिष्यति। कोलकाता नगरस्य ब्रिगेड परेड ग्राउंड इत्यत्र शपथ ग्रहण समारोह आयोज्यते। प्रधानमंत्री नरेन्द्र मोदी, गृहमंत्री अमित शाह, भाजपाध्यक्ष नितिन नवीन, केन्द्रीय मंत्रिण, एनडीए शासितानां राज्यानां मुख्यमंत्रिण च शपथ ग्रहण समारोहे भागं ग्रहीष्यन्ति इत्यपेक्षास्ति। पूर्वं ह्यः श्री अधिकारीवर्यः राज्य भाजपा विधायिका दलस्य नेता निर्वाचितः अभवत्। कोलकाता नगरे गृहमन्त्रिणः अमितशाहस्य उपस्थितौ विधायक दलस्य सभा अभवत्। सभायाः अध्यक्षः श्रीशाहः अवदत् यत् सर्वे प्रस्तावाः सुवेन्दु अधिकारिणः पक्षे एव प्राप्तानि। भाजपा विधायिका दलस्य नेतृत्वे निर्वाचनानन्तरं श्री अधिकारी पश्चिम बंगस्य राज्यपालेन आर एन रविना सह मिलित्वा राज्ये प्रथमं भाजपा नेतृत्वस्य सर्वकारस्य निर्माणाय प्रतिज्ञां प्रदत्तवान्। विधानसभा निर्वाचने भाजपेति दलं ऐतिहासिकं विजयं प्राप्नोत्। टीएमसीति दलस्य 15 वर्षाणां शासनं च समापितम्। पुदुचेरी राज्ये राष्ट्रिय जनतांत्रिक गठबंधनस्य मुख्यमंत्री पदस्य प्रत्याशी एन रंगासामी इत्येषः उपराज्यपालेन के कैलासनाथन वर्येण सह मिलित्वा अग्रिम सर्वकारस्य निर्माणाय प्रस्तावः प्रदत्तवान्। श्रीरंगासामी बहुसंख्यायां विधायकानां समर्थनपत्राणि उपराज्यपालाय समर्पितवान्। रक्षानुसंधान विकास संघटनेन डीआरडीओ इत्यनेन भारतीय वायुसेनया च गुरुवासरे ओडिशा तटस्य समीपे टैक्टिकल एडवांस्ड रेंज ऑगमेंटेशन तारेति शस्त्रस्य प्रथमोड्डयन परीक्षणं सफलतया सम्पादितम्। तारेति भारतस्य प्रथमा स्वदेशीया ग्लाइड शस्त्रव्यवस्थास्ति या मार्ग निर्देशित युद्धोपकरणान् यथार्थ निर्देशित शस्त्रेषु परिवर्तयति। दुबई नगरे भारतस्य वाणिज्य दूतावासेन समुद्रे मृतस्य एकस्याः नौकायाः भारतीयस्य चालकदलस्य मृत्योः विषये शोकः प्रकटितः। एकस्मिन् सामाजिकान्तर्जालीये पटले सन्देशे कौन्सुलेट जनरल इत्यनेन घटनैषा दुर्भाग्यपूर्णम् उक्तम्। सः पोतस्य स्वामिना सह निरन्तरं सम्पर्के अस्ति। अधिकविवरणानि च अन्वेष्टुं प्रयासरतः अस्ति। दूतावासेन आश्वासितं यत् अस्मिन् विषये सर्वविधसाहाय्यं प्राधान्येन प्रदीयन्ते। हॉर्मुज जलसन्ध्यां गतिरोधः तदा तीव्रः अभवत् यदा संयुक्तराष्ट्रसंघस्य सुरक्षापरिषदि अमेरिकासमर्थितस्य प्रस्तावस्य प्रारूपं ईरानदेशेन निराकृतम्। तद्दोषपूर्णं राजनीतिना प्रेरितं चास्तीति उक्तम्। तेहरानेन उक्तं यत् अयं प्रस्तावः विवादस्य समाधाने साहाय्यं न कृत्वा अवैधरूपेण कार्यं कर्तुं प्रेरयिष्यति। तेहरानेन संयुक्तराष्ट्रसंघस्य सदस्यराष्ट्रान् प्रस्तावस्य समर्थनं न कर्तुं प्रार्थितम्। आईपीएल क्रिकेट क्रीडायां गतरात्रौ दिल्ल्याः अरुण जेटलीति क्रिकेट क्रीडाङ्गणे कोलकाता नाइट राइडर्स दलेन दिल्ली कैपिटल्स दलं 8 पराजितम्। अद्य जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलं गुजरात टाइटन्स दलं सम्मुखी करिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। इति वार्ताः।